अर्थाय प्रतिबोधिताम् भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवती मष्टादशाध्यायिनी मम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणी नमस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायत पद्मनेत्र येन त्वया भारत तैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः प्रपन्न पारिजाताय दूत्र वैत्रैकपालये ज्ञानमुद्राय कृष्णाय गीतामृत दुहे नमः वसुदेव सुतं देवं कंसचालोरमर्दनं देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुं भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शैलग्राहवती कृपेण वहने कर्णेन वेलाकुला अश्वत्थाम विकर्ण घोर मकरा दुर्योधनावर्तिनी स्वत्तेना खलु पाण्डवै रणनदीकै वर्तकः केशवः अपाराशैलवचः सरोजममलम् गीतार्थगन्धोत्कटम् नानाख्यानकेसरम् हरिकथा सम्बोधनाबोधितम् लोके सज्जन षट्पदैरहरः एतीयमानं मुदा भूयाद् भारत पङ्कजं कलिमल प्रध्वंसिनः श्रेयसे मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्त्रिपादमहं वन्दे परमानन्दं माधवम् यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः सुन्वन्ति दिव्यैस्तवैर् वेदैः साङ्गपदक्रमोपनिषदे गायन्तीयं सामदाः ध्यानावस्थितजतेन मनसा पश्यन्तीयं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं चैव ततो जय बुधिः
सिद्धप्रज्ञस्य का भाषा समाधिस्थस्य केशव सितधी किं प्रभाषेत किमासीत व्रजेत किम् श्रीभगवानुवाच प्रजहानि यदा कामान् सर्वान् पार्थ मनोगतान् आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृह वीतरागभयक्रोध चित्रधिं मुनिरुच्यते यः सर्वत्राणभिस्नेह स्थितस्य प्राप्य शुभाशुभम् नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता यदा संहरति चायम् कुर्मोऽङ्गानीव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यः स्वस्य प्रज्ञा प्रतिष्ठिता ನಿಶಯಾ ವಿನಿವರ್ತಂತೆ ನಿರಾಹಾರಸ್ಯ ದೇಹಿನಃ ರಸವರ್ಜಂ ರಸೋಪ್ಯಸ್ಯ ಪರಂ ದೃಷ್ಟ್ವಾ ನಿವರ್ತತೆ ಯತ್ತೋಯಮಿ ಕೌಂತೇಯ ಪುರುಷಸ್ಯ ವಿಪಶ್ಚಿತಃ ಇಂದ್ರಿಯಾಣಿ ಕ್ರಮಾತೀನಿ ಹರಂತಿ ಪ್ರಸಭಂ ಮನಃ ತಾನಿ ಸರ್ವಾಣಿ ಸಂಯಮ್ಯ ಯುಕ್ತ ಆಸೀತ ಮತ್ಪರಃ ವಶೇ ಹಿ ಯಸ್ಯ ಇಂದ್ರಿಯಾಣಿ ತಸ್ಯ ಪ್ರಜ್ಞಾ ಪ್ರತಿಷ್ಠಿತಾ ಧ್ಯಾಯತೋ ವಿಷಯಾನ್ ಪುಂಸಃ ಸಂಗಸ್ತೇಷು ಉಪಜಾಯತಿ ಸಂಗಾ ಸಂಜಾಯತಿ ಕಾಮ ಕಾಮಾತ್ ಕ್ರೋಧೋ ವಿಜಾಯತೆ ಕ್ರೋಧಾತ್ ಭವತಿ ಸಮ್ಮೋಹ ಸಮ್ಮೋಹಾ ಸ್ಮೃತಿ ವಿಭ್ರಮಃ ಸ್ಮೃತಿಭ್ರಂಶಾತ್ ಬುದ್ಧಿನಾಶೋ ಬುದ್ಧಿನಾಶಾತ್ ಪ್ರಣಶ್ಯತೆ ರಾಗ ದ್ವೇಷ ವಿಯುಕ್ತೇಸ್ತು ವಿಷಯಾನಿಂದ್ರಿಯಶ್ಚರನ್ ಆತ್ಮವಶ್ಯೈ ವಿಧೇಯಾತ್ಮ ಪ್ರಸಾದಮಧಿ ಗಚ್ಚತಿ ಪ್ರಸಾದೇ ಸರ್ವ ದುಃಖಾನಾಂ ಹಾನಿರಸ್ಯ ಉಪಜಾಯತಿ ಪ್ರಸನ್ನ ಚೇತಸೋ ಯಾಶು ಬುದ್ಧಿ ಪೈರವ ಪ್ರತಿಷ್ಠತೆ ನಾಸ್ತಿ ಬುದ್ಧಿರಯುಕ್ತಸ್ಯ ನ ಚಾಯುಕ್ತಸ್ಯ ಭಾವನಾ ನ ಚಾಭಾವಯತಃ ಶಾಂತಿ ಪ್ರಶಾಂತಸ್ಯ ಕುತಃ ಸುಖಂ ಇಂದ್ರಿಯಾಣಾಂ ಹಿ ಚರತಾಂ ಯನ್ಮನೋನು ವಿಧೀಯತೆ ತದಸ್ಯ ಹರಹಿ ಪ್ರಜ್ಞಾಂ ವಾಯುರ್ನಾಮ ಮೀಮಾಂಭಸೆ ತಸ್ಮಾದ್ ಯಸ್ಯ ಮಹಾಬಾಹೋ ನಿಗೃಹೀತಾನಿ ಸರ್ವಶಃ ಇಂದ್ರಿಯಾಣೀಂದ್ರಿಯಾರ್ಥೇಭ್ಯ ಸಸ್ಯ ಪ್ರಜ್ಞಾ ಪ್ರತಿಷ್ಠಿತಾ ಯಾನಿಷಾ ಸರ್ವಭೂತಾನಾಂ ತಸ್ಯಾಂ ಜಾಗರ್ತಿ ಸಂಯಮಿ ಯಸ್ಯಾಂ ಜಾಗೃತಿ ಭೂತಾನಿ ಸಾನಿಷಾ ಪಶ್ಯತೋ ಮುನೇಃ ಆಪೂಯಮಾನ ವಚಲ ಪ್ರತಿಷ್ಠಂ ಸಮುದ್ರಮಾಪಃ ಪ್ರವಿಶಂತಿ ಯದ್ವತ್ ತದ್ವತ್ ಕಾಮಾಯಂ ಪ್ರವಿಶಂತಿ ಸರ್ವೇ ಸ ಶಾಂತಿಮಾಪ್ನೋತಿ ನ ಕಾಮಕಾಮಿ ವಿಹಾಯ ಕಾಮಾನ್ಯಃ ಸರ್ವಾನ್ ಉಮಾಶ್ಚರತಿ ನಿಸ್ಪೃಹ ನಿರ್ಮಮೋ ನಿರಹಂಕಾರ ಸ ಶಾಂತಿ ಅಧಿಗಚ್ಛತಿ ಏಷಾ ಬ್ರಾಹ್ಮಿ ಸ್ಥಿತಿ ಪಾರ್ಥ ನೇನಾಂ ಪ್ರಾಪ್ಯ ವಿಮುಹ್ಯತಿ ಸ್ಥಿತ್ವಾ ಸ್ಯಾಮಂತಕಾಲೇವಿ ಬ್ರಹ್ಮ ನಿರ್ವಾಣ ಮೃಚ್ಛತೆ ಇತಿ ಶ್ರೀ ಮಹಾಭಾರತೇ ಶತಸಹಸ್ರ ಸಂಹಿತಾಯಾಂ ವೈಯಾಸಿಕಂ ಭೀಷ್ಮಪರ್ವಣಿ ಶ್ರೀಮದ್ ಭಗವದ್ಗೀತಾಸು ಉಪನಿಷತ್ಸು ಬ್ರಹ್ಮ ವಿದ್ಯಾಯಾಂ ಯೋಗಶಾಸ್ತ್ರೇ ಶ್ರೀಕೃಷ್ಣಾರ್ಜುನ ಸಂವಾದಿ ಸಾಂಖ್ಯಯೋಗ ನಾಮ ದ್ವಿತೀಯ ಅಥ ದಶಮೋಧ್ಯಾಯ ಶ್ರೀಭಗವಾನುವಾಚ
ಭೂಯ ಏವ ಮಹಾಬಾಹು ಶೃಣು ಮೇ ಪರಮಂ ವಚಃ ಯತೇಹಂ ಪ್ರೀಯಮಾಣಾಯ ವಕ್ಷ್ಯಾಮಿ ಹಿತಕಾಮ್ಯಯಾ ನಮೇ ವಿರೋ ಸುರಗಣಾಃ ಪ್ರಭವನ್ನ ಮಹರ್ಷಯಃ ಅಹಮಾದಿರ್ಹಿ ದೇವಾನಾಂ ಮಹರ್ಷೀಣಾಂ ಚ ಸರ್ವಶಃ ಯೋ ಮಾಂ ಜನಮನಾಧೀಂ ಚ ವೇತ್ತಿ ಲೋಕಂ ಮಹೇಶ್ವರಂ ಅಸಂಮೂಢ ಸಮರ್ಥೇಷು ಸರ್ವ ಪಾಪೈ ಪ್ರಮುಚ್ಯತೆ ಬುದ್ಧಿರ್ಜ್ಞಾನ ಸಮ್ಮೋಹ ಕ್ಷಮಾ ಸತ್ಯಂ ತಮಃ ಶಮಃ ಸುಖಂ ದುಃಖಂ ಭವೋ ಭಾವೋ ಭಯಂ ಚಾಭಯಮೇವ ಚ ಅಹಿಂಸಾ ಸಮತಾ ತುಷ್ಟಿ ಸಪೋದಾನಂ ಯಶೋ ಯಶಃ ಭವಂತಿ ಭಾವಭೂತಾನಾಂ ಮತ್ತ ಏವ ಪೃಥಗ್ವಿಧಾ ಮಹರ್ಷಿಯ ಸಪ್ತ ಪೂರ್ವ
सर्वे चत्वारो मनवस्तथा मद्भावा मानसा जाता येषाम् लोक इमा प्रजा एनाम् विभूतियोगम् च मम योगेति तत्त्वतः सोऽवितम्बेन योगेन युज्यतेनात्र संशयः अहम् सर्वस्य प्रभवो मत्तः सर्वम् प्रवर्तते इति मत्वा भजन्ते माम् बुधा भावः समन्विताः मज्जिनामद्गतप्राणा बोधयन्तः परस्परम् कथयन्तश्च माम् नित्यम् दुष्यन्ते च रमन्ति च तेषाम् सततयुक्तानाम् भजताम् प्रीतिपूर्वकम् ददामि बुद्धियोगम् तम् येन मामुपयाति ते तेषामेवानुकम् पार्थ अहमज्ञानजम् तपः नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता अर्जुन उवाच परम् ब्रह्म परम् धाम पवित्रम् परमम् भवान् पुरुषम् शाश्वतम् दिव्य आदिदेव अजम् विभुम् आहुस्त्वा मृषयः सर्वे देवर्षीणारदस्तथा असितो देवलो व्यासः स्वयम् चैव ब्रवीषि मे सर्वमेतद्धृतम् मन्ये यन्माम् वदसि केशव न हि ते भगवन् व्यक्तिम् विदुर्देवानदानवा स्वयमेवात्मनात्मानम् व्यर्थत्वम् पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते वक्तुमर्हश्च शेषेण दिव्यायात्मविभूतयः याविर्विभूतिभिर्लोका निमांसम् व्याप्य तिष्ठसि कथम् नित्यामहम् योगि स्वाम् सदा परिचिन्तयन् येषु केषु च भावेषु चिन्त्योऽसि भगवन् मया विस्तरेणात्मनो योगम् विभूतिम् च जनार्दन भूयः कथय तृप्तेः शृण्वतो नास्ति मे मृगम् श्रीभगवानुवाच हन्तते कथयिष्यामि दिव्यायात्मविभूतयः प्राधान्यतः कुरु श्रेष्ठ नास्त्यन्तो विस्तरस्य मे अहमात्मा गुढाकेश सर्वभूताश्रयस्थितः अहमादिष्टमध्यम् च भूतानामन्त एव च आदित्यानामहम् विष्णु ज्योतिषाम् रविरंशुमान् मरीचिर्मरुतामस्मि नक्षत्राणामहम् शशि वेदानाम् सामवेदोऽस्मि देवानामस्मि वासवः इन्द्रियाणाम् मनश्चास्मि भूतानामस्मि चेतना रुद्राणाम् शङ्करश्चास्मि वित्तेषो यक्षरक्षसाम् वसूनाम् पावकश्चास्मि मेरुशिखरिणामहम् पुरोधसाम् च मुख्यम् मा विद्धि पार्थ बृहस्पतिम् सेनानीनामहम् स्कन्द सरसामस्मि सागर
महर्षिणाम् भृगुणहम् गिरामस्मेकमक्षरम् यज्ञानाम् जपयज्ञोऽस्मि स्थावराणाम् हिमालयः अश्वत्थः सर्ववृक्षाणाम् देवर्षीणाम् च नारदः गन्धर्वाणाम् चित्ररथः सिद्धानाम् कपिलो मुनिः उच्चैश्रवश्रमश्वानाम् विद्धिमामृतोद्भवम् ऐरावतम् गजेन्द्राणाम् नराणाम् च नराधिपम् आयुधानामहम् वज्रम् धेनूनामस्मि कामधुक्
ऋजनश्चास्मि कन्दर्प सर्पानामस्मि वासुकेः अनन्तश्चास्मि नागानाम् वरुणो यादसामहम् पितॄणामयमा चास्मि यमः संयमतामहम् प्रहलादश्चास्मि दैत्यानाम् कालः कलयतामहम् मृगाणाम् च मृगेन्द्रोऽहम् वैनकेयश्च पक्षिणाम् पवनः पवतामस्मि रामशस्त्रमृतामहम् जशानाम् मकरश्चास्मि स्रोतसामस्मि जाह्नवे सर्गाणामादिरन्तश्च मध्यम् चैवाहमर्जुन अध्यात्मविद्या विद्यानाम् वादः प्रवर्धतामहम् अक्षराणामकारोऽस्मि द्वन्द्वसामासिकस्य च अहमेवाक्षयः कालो धाताहम् विश्वतोमुखः मृत्युः सर्वहरश्चाह उद्भवश्च भविष्यताम् कीर्तिश्रीर्वाक्च नारीणाम् स्मृतिर्मेधाभ्युतिक्षमः बृहत्साम तथा साम्नाम् गायत्री छन्दसामहम् मासानाम् मार्गश्रीशोभम् ऋतूनाम् कुसुमाकरः द्यूतम् शले रामस्मि तेजस्तेजस्विनामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वम् सत्त्ववतामहम् ऋषीणाम् वासुदेवोऽस्मि पाण्डवानाम् धनञ्जयः मुनीनामप्यहम् व्यासः कवीनाम् मुशना कविः दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् मौनम् चैवास्मि गुह्यानाम् ज्ञानम् ज्ञानवतामहम् यच्चापि सर्वभूतानाम् बीजम् तदहमर्जुन न तदस्ति विना यस्यान् मया भूतम् चराचरम् नान्तोऽस्ति मम दिव्यानाम् विभूतीनाम् परन्तप एष तुद्देशतः प्रोक्तो विभूतिर्विस्तरो मया यद्यद्विभूतिमत्सत्त्वम् श्रीमदुर्जितमेव वा तत्तदेवावगच्छ त्वम् मम तेजोषसम्भवम् अथवा बहुनैतेन लिङ्गातेन तवार्जुन विष्टभ्याहमिदम् कृष्ण मेकांशेन स्थितो जग इति श्रीमहाभारते संहितायाम् वैयासिक्यम् भीष्मपर्वणि श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोग नाम दशमोऽध्यायः अर्जुन उवाच
एवम् सततयुक्ताय भक्तास्त्वम् पर्युपासते ये चाप्यक्षरमव्यक्तम् तेषाम् ते योगवित्तमा श्रीभगवान् उवाच मय्यावेश्यन्मनो ये माम् नित्ययुक्ता उपासते श्रद्धया परयोपेता स्ते मे युक्ततमामता ये त्वक्षरमनिर्देश्यम् अव्यक्तम् पर्युपासते सर्वत्र गमचिन्त्यम् च कूटस्थमचलम् ध्रुवम् सन्नियमिन्द्रियग्रामम् सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतहितेरताः
येषोऽधिकतरस्तेषाम् अव्यक्ता सत्तचेतसाम् अव्यक्ता हि गतिर्दुःखम् देहवद्भिरवाप्यते। ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येनैव योगेन माम् ध्यायन्त उपासते। तेषामहम् समुद्धर्ता मृत्युसंसारसागरात् भवामि न चिरात् पार्थ मय्यावेशित चेतसाम् मय्यैव मन आधस्व मयि बुद्धिम् निवेशय निवश्यशि मय्येव अदूर्वम् न संशयः। अद चित्तम् समाधातुम् न शक्नोषि मयि स्थिरम् अभ्यास योगेन ततो मामिच्छाप्तुम् धनञ्जय। अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि। अथैतद्यत्र शक्तोऽसि कर्तुम् मद्योगमाश्रितः सर्वकर्म फलत्यागम् ततः कुरु यतात्मवान्। श्रियो हि ज्ञानाभ्यासात् ज्ञानाज्ञानम् विशिष्यते ध्यानात् कर्म फलत्याग त्यागा शान्तिरनन्तरम्। अद्वेषा सर्वभूतानाम् नेत्रः करुण एव च निर्ममो निरहङ्कार समदुःख सुखक्षमे। सन्तुष्ट सततम् योगी यदात्मा दृढनिश्चयः मय्यर्पित मनो बुद्धिर् यो मद्भक्त स मे प्रियः। यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्षभयोद्वेग मुक्तो यः स च मे प्रियः। अनपेक्ष सुचिर्दक्ष उदासीनो गतव्यथ सर्वारम्भ परित्यागी यो मद्भक्तः स मे प्रियः। यो न ऋष्यति न द्वेष्टि न शोचति न कांक्षति शुभाशुभ परित्यागी भक्तिमान्यः स मे प्रियः। समः शत्रो च मित्रे च तथा मानापमानयो शीतोष्ण सुख दुःखेषु समसङ्ग विवर्जितः। तुल्य निन्दा स्तुतिर्मौनि सन्तुष्टो येन केनचित् अनीके सस्थिरमते भक्तिमान् मे प्रियो नरः। ये तु धर्म्यामृतमिदम् यथोक्तम् पर्युपासते श्रद्धानाम् मत्परमा भक्तास्ते अतीव मे प्रियाः। इति श्रीमहाभारते सकाशनम् संहितायाम् वैयासिक्यम् विशिष्टपर्वणि श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोग नाम द्वादशोऽध्यायः। अथ पञ्चदशोऽध्यायः श्रीभगवान् वाच
ऊर्ध्वमूलमधशाकम् अश्वत्थम् प्राहुरव्ययम् छन्दांसि यस्य पर्णानि यस्तम् वेदः स वेदवे। अधश्चूर्वम् प्रसृता सस्य शाखा गुणप्रवृद्धा विषयप्रवाला अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीन् मनुष्यलोके। न रूपमस्येहतोपलभ्यते नान्दो न चाधीर्न च सम्प्रतिष्ठा अश्वस्थमेलम् सुविरूढमूल असङ्गशस्त्रेण दृढेन चित्वा ततः पदम् तत्परिमार्गितव्यम् यस्मिन् गतान निवर्तन्ति भूयः त्वमेव चाद्यम् पुरुषम् प्रपद्ये यतः प्रवृत्ति प्रसिता पुराणि। निर्माणमोहादितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा द्वन्द्वैर्विमुक्ता सुखदुःखसङ्गे गच्छन्त मूढा परमं जयं तत् न तद्भासयते सूर्यो न शशाङ्को न पावकः यद्गत्वा न हि वर्तन्ते तद्धाम परमं मम ममैवांशो जीवलोके जीवभूतः सनातनः मनः शस्त्राणीन्द्रियाणि प्रकृतिस्थानि कर्षते शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः गृहे तेजानि संयाति वायुर्गन्धानि वाशयात् श्रोत्रं चक्षुस्पर्शनं च रसनं प्राणमेव च अधिष्ठाय मनश्चायम् विषयानुपसेवते उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितं विमूढानानुपश्यन्ति पश्यन्ति यान् चक्षुषः यदन्तो योगिनश्चैनं पश्यन्तात्मन्यवस्थितं यदन्तोऽप्यकृतात्मानो नैनं पश्यन्त्य चेतसः यदादित्यगतं तेजो जगद्भासयते किलं यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विधिमामकम् कामाविश्य च भूतानि धारयाम्यहमोजसा पुष्णामि चौषधी सर्वा सोमो भूत्वा रसात्मकम् अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यम्यं चतुर्विधम् सर्वस्य चाहं हृदि सन्निविष्टो मतः स्मृति ज्ञानमोहनं च वेदश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् स्वामिनो पुरुषो लोके शरश्चाक्षर एव च शरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते उत्तमः पुरुषस्त्वन्य परमात्मेत्युदारितः यो लोकत्रयमाविश्य विवर्तव्यय ईश्वरः यस्माक्षरपीतोऽहम् अक्षरादपि चोत्तमः अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः यो मामेव सम्मूढो जानाति पुरुषोत्तमम् स सर्वविद्भजति माम् सर्वभावेन भारत इति गुह्यतमम् शास्त्र इदम् उक्तम् मया नख एतद्बुद्ध्वा बुद्धिमान् कृतकृतश्च भारत इति विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः।